in this chapter distinction between demonic and divine nature. From the very beginning, he starts off listing the divine qualities which makes one happy. He gives a long list of divine qualities, starting with Abhayam, Sattva Samshudir, the divine nature. The person who have divine nature, they are Abhayam. They have no fear. They have no fear of death, because they know they do what they are supposed to do. And some Sattva Samshudir, they are trying to purify their existence, and so on and so forth. And then he very briefly describes the nature of demonic persons. And he says, Dambha, Krodha. He lists certain qualities, Dambho, Darpa, Abhimanascha, Abhiman. They are very proud. The main and the most prominent characteristic of demonic person is that they are very proud. Like today, Acharya Sanskritananda gave me a list of glorious events which took place in Bharatvarsha, in India. But then the title was, Be Proud, Be Very Proud. And he said, cross over this title is stupid. The real title should be, Be Humble, yeah. Be Humble. This is the real quality. And Krishna says that the most prominent, the most outstanding characteristic of a demonic person is Dambha. Dambha means pride. Abhiman means false ego. Means that someone is...
Dambha, hypocrisy.
Hypocrisy. Dambha is also hypocrisy. And but then when we study carefully the list of qualities which Krishna gives for demonic person, we will find out that all these qualities we have. This is the most natural qualities of human being. You know, he says Krodha. Who doesn't have Krodha? Who doesn't get angry? You know, is there anyone who doesn't get angry? No one. Everyone gets angry. Yeah? And everyone is proud. You know, it is said that when Riksha has 2 rupees, he's proud because he's so rich. You know, he has 2 rupees. And when we have some little thing, something, when we get some little education, little money or whatever, we immediately become proud. So, in reality, all these qualities are natural to our very existence. All these qualities are sahaja. They are more or less born with ourselves. And all these qualities we possess. Like I remember when I just started my devotional career, so to speak. I started studying Bhagavad Gita. I gave Bhagavad Gita to one of my friends. And he was very impressed. He read the whole Bhagavad Gita and he was very impressed. But then he said that the chapter he liked the most was the 16th chapter. He said, I read the 16th chapter. And Krishna says in the beginning, this is divine nature, this is demons. He said, I read and I understood, I'm a demon. Understood, that's about me. Therefore, he liked it very much. Understood that this is something which has some relation to him, that which is quite relevant. So, when we see, we can understand that all these qualities are natural for us. So, what to do? And Krishna says that if someone has these qualities, if someone is a proud possessor of these glorious qualities, Dambha, Krodha, and so on and so forth, Abhiman, then he says nothing good will happen to him. He explains that all bad things will happen to him, he will go to hell, and he says to Arjuna in the very beginning, don't be afraid, you are not of this nature, you are of divine nature. It means that if somebody has this demonic nature, then he has to be afraid. And it means that we have to be afraid. So the natural and simple question arises, what to do? And how in this world all these good and glorious qualities can be obtained? Abhayam. How can we become Abhayam? How can we become Sattva Samshudhir? By nature, by very nature of our existence, we are opposite. And the answer which Krishna gives in this very important chapter of the Bhagavad Gita is that the only way to become divine, the only way to develop these divine qualities is to follow Shastra. Because by nature we are pashu, we are animals. You know, there are chatushpada pashu and there are dvipada pashu. You know, we have two legs and some animals have four legs. But there is no much difference. The only difference is that when animals live their animal life, they more or less follow the laws of nature. But because we have such a good brain, such an inventive and fertile brain, we always break the laws of nature. This is the only difference. You know, there are animals which follow the law of nature and they are more or less happy. And there are animals who break the laws of nature and they are not happy as a result of this. And therefore, for this dvipada pashu, for two-legged animals, there is Shastra. And everyone has to follow Shastra. Everyone has to know that there is certain rules and regulations which we are supposed to follow. And by following Shastras, we can develop all these good qualities. Without following them, we cannot develop this. Therefore, by describing this very nature of, and this is very simple and very important point of understanding, Shastras are eternal. And Shastras are speaking about eternal truth. And this truth is truth always, all the times, in all circumstances. It's not only truth in Bharatavarsha. It's not that in Bharatavarsha you have to follow the rules, you have to abstain from meat eating and intoxication, and when you come to Russia, you don't have to do this, because these laws don't exist here. No. These laws are eternal. These laws are in the Shastras. And Shastras are eternal, and Shastras are speaking about eternal and absolute truth. But demonic nature, the very sign, the very prominent characteristic of demonic nature is that they want to break, they want to follow, they want to throw up all these laws. They want to follow kamavartate, as Krishna will say later on. He says, they are just following their whims. Whatever I want to do, I will do. You know, this is human nature. Be natural, as they say in Russia or in any other countries. One should be natural. One should relax. One should, you know, all these rules and regulations make someone hang up and, you know, so many problems are there, you know. Why don't you relax and follow your nature? And for that, demonic person, they have to have some philosophy. And in this particular verse, Asatyam Apratishtam Te Jagat Ahura Nishwaram, Krishna explains the theory, the philosophy, the philosophical basis of their existence. Because everyone has to have some philosophical basis. It's not that, you know, if you don't follow anything, you don't have to have philosophy. Everyone has philosophy. Even communists, they also have philosophy, you know. They have so many volumes of philosophy. Also, the whole philosophy, the whole point of this philosophy is to prove that there is nothing really, you know, to follow. But still, to prove this, one has to have philosophy. To prove this very simple and very stupid point, one has to write volumes and volumes and volumes of philosophy. And in this particular verse, Krishna explains what philosophical basis one has to acquire, one has to somehow or other take shelter of, to prove that his way of existence is the only proper way of existence. And he says, he starts off saying, Asatyam apratishtam te jagat ahura nishvaram. The first thing which you have to prove, which you have to somehow or other see or to have a vision of, is that this world is unreal. Asatyam. There is no real substance in this world. And there are so many different theories how you can say that there is no substance. Some say that this world is only matter. And to say that this world is a matter is to say that there is no substance. Because matter ultimately has no substance. Matter is dead. Matter is dead either now or in the near future, you know. It will be dead. Matter is, nothing substantial is there. There is no vastu in it. There is no substance in it. Acharya Sanskrit Ananda asked me to use as much Sanskrit as possible, so I follow his request. I don't know Sanskrit, I am murkha. But Since he asked me, I will try.
Since you want to learn.
Since I want to learn, yes. That's right. Since we're supposed to know the language of the Shastras. So, asatyam apratishtam te. Asatyam, first of all, you have to say that there is no real substance, that this world is a dream, that this is kind of illusion. And there are so many theories, so many philosophies which say these things. Mayavadi philosophy or Advaita Vedanta philosophy, which is very prominent nowadays. So also say that this Jagat Mithyam, Jagat Mithyam, that Brahma Satyam Jagat Mithyam, Jagat is Mithyam. It's something unreal. It's something which has no real existence. But Krishna doesn't say this. Some say that this is Vedic philosophy, that in Vedas there is said that this world is Maya, and Maya means illusion, right? But Krishna, in the Bhagavad Gita, in the very Bhagavad Gita, he says, Maya dyakshena prakritih, suyate sacharacharah, Maya dyakshena prakritih, this whole prakriti is working under my direction, under my supervision. And we know that Krishna, his word is satya sankalpa. Whatever he says, whatever he wants, is truth. Satya Sankalpa, whatever he wishes, it becomes truth. Satyam. And this world is the creation of the Lord. How the creation of the of someone who is Satyam can be Mithyam. It's also Satyam. Asatyam apratishtam te. And then, when we say that there is no basis, there is no truth, there is no real substance, there is no reality in this world, then very naturally you can make next conclusion, apratishtam. And apratishtam, if you translate it into a modern language, if you translate it into a language of the modern science, it's to say that everything is relative. You know, there is this relativity theory, famous theory of the 20th century, you know, the greatest theory. Everything is relative. There is nothing really, really substantial. Apratishtam. There is no basis of anything. And the main relative thing which you have to prove, the main relative point, the main point of relativity, of course, you know, everything is relative, everything is just, you know, moving in different directions, but in reality what you want to prove, what we want to prove, what all we want to prove, is that there is no pratishtam, there is no basis for morality, for dharma. Dharma, adharma, here it's dharma, there it's adharma, you know, everything is relative. You know, you just follow whatever you like to follow, more or less, and everything will be fine. You know, this is dharma here, this is adharma here, you know. We should be realistic, we should be, you know, practical. Yeah, we should be practical. Adharma, adharma, doesn't matter. Apratishtam. Asatyam apratishtam te jagat ahura nishwaram. They say, jagat ahura nishwaram. There is no Ishvara. And ultimately you have to say, there is no God. There is no God, there is no controller. And who is controller? Naturally, I'm controller, you know. If there is no other controller, I have to control. You know, as they say in Russia, one has to be, you know, a lord of one's own destiny. You know, you have your destiny, you have to lord it over, you have to go through it, push through it, you know, grab it, do something. Because there is no satyam, there is no truth, there is no pratishtam, there is no absolute truth, there is no dharma. You can do whatever you want, you can behave whatever you like, you know. And then, aparasparam sambhutam. Aparasparam sambhutam, this is interesting. This is also, Baladev Vidya Bhushan explains that aparasparam sambhutam, this is the theory of Buddhists. Svabhava Vada, he says. Svabhava Vada is that this world is somehow rather naturally appeared, without any real cause. Aparasparam, no cause, no female, male, you know, some naturally, some affinity is there. I had a scientific career as a chemist, and there is a chemical term, affinity. You know, and they say that this world, you know, everything has some affinity with each other. And because of this affinity, all these forms are created. These forms of this world, because of the affinity, somehow or other, they have natural, how you say it?
Akarshanam.
Akarshanam, yeah, akarshanam. Akarshanam. natural attraction. And some natural attraction creates different forms and different manifestations of this material world. Svabhava vada. It's just some naturally something we have, you know, just naturally, and you know. But the most important and most amazing thing, after proving that there is no substance, that there is no dharma, that there is no reality in this world, what they do, they start enjoying this reality like anything. Like Srila Prabhupada explains in the purport, they say that this is a dream, but they're very expert in enjoying this dream. You know, there is no substance in dream. You cannot really enjoy any dream. But you enjoy this dream because there is no substance. And then they say the main point, kama hai to kama. The real cause of this material world is kama, is lust. Kama, which we have in our heart, and therefore we have to follow this kama. The main cause of this creation is kama, kama hai to kama. This is the theory of Charvak Muni. Charvaka Muni says that lust and only lust is the real cause of this creation. There is no other cause, just lust. You so be lusty, you know, be lusty. Enjoy it. Like when I was in India, you know, there was a big billboard, advertising board of the new cinema, The End of Innocence, you know, and it was a very seductive picture of man and woman, you know, and I was thinking, you know, the end of innocence, the beginning of nonsense, you know. and there is the end of innocence, the nonsense start, you know. Kama hai to kama. Kama hai to kama. Naturally, you will become lusty, and when you are lusty, you start doing nonsense. You start doing all kinds of nasty things. And because of doing nasty things, ultimately you will go to hell. And of course, there is no substance in hell, but you will suffer there. It's not real, but you will suffer there. So that is the result of such strange and illusory theory. And kama hai to kama, another explanation of this kama hai to kama, they say that creator, some say that there is God, that God has created this world, but they say that he created this God because of his calm, because of his whim, because of his lust, because of his egoistic desire, because of his some selfish desire, some cruel God, you know, and he created this cruel world, and we're suffering in this cruel world. Kama hai to kama. And all this is only necessary to prove or to explain to ourselves that Vartate kama karanam. Nasasidhima vapnati. The result of this, Krishna explains in the end of this chapter. He says that nasasidhima vapnati nasukham na param gatim. How do you say? Yakshastram vidhima srijya. First, you throw out all regulations of shastras. Nasashastram vidhim, yakshastras vidhim utsrijya. All vidhi, all regulations and rules, you throw out utsrijya. Vartate kama karana. You do whatever you want. You do whatever you like. You follow whatever your right leg wants. And, you know. And then vartate kama karana. But the result is this. Nasasidhima vapnati. You don't reach. You don't get the perfection. Nasukham. You don't become happy. Na param gatim. And you don't get the real destination, the higher destination in this world. And actually, what they want when they say kama hai to kama, when they say that this world was created by some cruel and whimsical creature, by some cruel lord who created this world, they basically, what they do, the logic which they follow is that atmavan manyate jagat. I am whimsical. I am lusty. I have kama. So the creator is also whimsical. He is also lusty. And he created this lusty world, and I am living in this lusty world. Kama hai to kama. Atmavan manyate jagat. You see this world how you are. And what actually what they do, by projecting all these ideas, asatyam apratishtam te jagat ahura nishvaram, they basically project the impure heart into the reality of this world. They see this world, we see this world, through the agency of our mind. And if our mind is not pure, then we see all this world is not pure. Like there is a story in Mahabharata. The students approached Dronacharya once. And they say, some people say that Yudhishthira is very pious and Duryodhan is not good, is wicked. You know, is it really true? How to prove it? How to understand that someone is pious and someone is not? And Dronacharya said, I can prove you. It's very simple. And he called Yudhishthira and he said, O Maharaja Yudhishthira, please go out in the world and bring here some wicked man. If you find somebody who is wicked, please bring him here. And then Dronacharya at the same time called Duryodhan. And he said, Duryodhan, oh, Duryodhan, Maharaja, please go out and find somebody good. You know, if you find somebody good, bring him here. And then they went out, and then Maharaja Yudhishthira came, and he said, I couldn't find anyone wicked in this world. Everyone is good. And then Duryodhana came, and he said, I couldn't find anyone good in this world. Everyone is wicked. Everyone is evil. You know. And then Dronacharya said, look, this is the reflection of one's own nature. You see this world as you are. If you are envious, you will see everyone as envious. If you are lusty, you will see everyone is lusty. If you want some honor, some respect, if you have all this pride, then you will see everyone is proud. And if you are humble, you will see everyone is humble. if you follow Shastras, you will see that it is said that Uttama Bhagavata, Mahabhagavata, Uttama Adhikari, he sees everyone engaged in the service of the Lord. And how we see everyone? We see everyone is so bad. You know, we see he's bad and she's bad and he's bad and all of them are bad and devotees are bad and everything is so bad. You know, but this is the reflection, this is the manifestation of our heart. We see our heart as we are. And the only way to purify the heart, the only way to develop godly qualities, divine qualities, is to follow Shastras. There is no other way, there is no other way, there is no other way. To follow Shastras, to follow the rules and regulations of the Shastras, and then gradually our heart will be purified. And the Shastras say that Harer Nama, Harer Nama, Harer Nameva Kevalam, Kalau Nastieva, 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 Gatiranyatha. There is no other way. There is no other way. There is no other way. There are so many statements of the Shastras. And if we examine very clearly Shastras, if we examine the main vidis, main rules and regulations of the Shastras, we will see, as it said in Padma Purana, that smartavyam satatam vishnuh na smartavyam na jatuchit. Vismartavyam na jatuchit. Sarva vidi nishedasyu. Eta yohava kinkara. All the vidis and nishedas of the Shastras, all the rules and regulations of the Shastras are only to remember the Lord, are only to remember Vishnu and never to forget Him. All the rules and regulations, this is the main, the substance, the main essence of all scriptural teachings which is there. You know, there are so many rules, you have to chant this mantra, you have to do this, you have to do this, but the reality is that you have to remember Vishnu. You have to remember Vishnu. Even in Ayurveda, in Ayurvedic scripture, it is said that the medicine will only be effective if by taking the medicine you remember Vishnu. If you don't remember Vishnu, the medicine will have no effect, or will have very little effect. But real essence, the real medicine for the soul is to remember Vishnu. Everything else is superficial. Everything else is not that important. So, therefore, all Shastras, the essence of all Vidis and Ishedas is to remember the Lord. And the best way to remember the Lord is to chant His holy name. Like Krishna says in Bhagavad Gita, Satatam Kirtayantamam, that the divine, the Mahatmas, Mahatmanas Tumam Partadaivim Prakriti Mashritaha, they took shelter of the divine nature. And taking shelter of the divine nature means Satatam Kirtayantamam. They always constantly engage in Kirtan. They chant holy name, they remember holy name, they do japa. And Krishna says in the 10th chapter of the Bhagavad Gita, he says that, you know, of all the sacrifices, so many sacrifices you can do. You can do big Ashwamedha Yagya, you can do this Yagya, that Yagya, you can do some little Yagya. But the greatest Yagya is what? Japam. If you chant japa, this is the greatest yagya. If you chant holy name of the Lord, Hare Krishna, Hare
Krishna, Krishna Krishna, Krishna Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare.
There is no greatest yagya. There is no greatest sacrifice. Because by chanting the holy name of the Lord, you're saying, I surrender unto you. You're sacrificing something which is the most dear to you, your false ego. Something which caused so much trouble to you over so many lifetimes. But still, by doing this, you can get rid of the false ego. You can finally become free from this troublesome element of our life, and finally you can become happy. Therefore, this is the essence of the 16th chapter. If you want to become godly, if you want to become divine, you have to follow Shastra. And if you want to follow Shastra, you have to chant the holy name of the Lord. You have to chant and follow the processes of bhakti. Shravanam, kirtanam, vishnuk, smaranam, padasevanam, archanam, vandanam, dasyam, sakyam, atmanivedanam. That any process, in fact, any process of the life, whatever you do, starts from shravanam. And if you want to remember about Vishnu, you have to hear about him. Like we're now trying to learn some Sanskrit. And the first process of learning Sanskrit is what? Shravanam. One has to hear. One has to hear. And when one hears enough, then one has to repeat. And the same thing is about Shastras. If we want to follow Shastras, we have to hear Shastra. We have to hear. We have to come and hear Shastras. And when we hear Shastra enough, we have to repeat Shastra to make it clear, to make it very stable in our heart. And when the Shastra is there in our heart, nothing will harm us. We will just go very happily in this life. We follow all these rules and regulations very happily. It's actually very natural. We will understand that there are two natures. And by following our pashu nature, our animal nature, we become unhappy. And by following the other nature which is there in our heart, our divine nature, our real nature, we become happy. And to follow divine nature is to follow Shastra, because Shastra is a reflection of divine nature. Shastra is not relative. Shastra is the reflection of absolute reality. And this absolute reality is reflected in the words of Krishna. Krishna is absolute reality himself, and whatever he says is truth. So we just have to follow Shastras, we have to hear Shastras, we have to remember Shastras, we have to study Shastras, we have to worship Shastras, we have to follow Shastras, we have to understand that all this great Vedic culture, which makes one civilized, which makes one real human being, is based on Shastras. And the more we follow Shastras, the more human we become, and the more happy we become, and the more everything will become Samichinam, Shobanam, Sundaram. Hare Krishna. This is a few words which I could say. One could say much more about this verse, because Krishna afterwards says about the pernicious effects of following this series. He says that actually by following this series, Asatyabham Pratishnam Te Jagatahura Nishwaram, the whole world is destroyed. The very next verse, Ugra Karma. In the very next verse, he says that by following these philosophies, by following this, you create Ugra Karma, and by Ugra Karma, you destroy the whole world. The whole world is destroyed. And what we can see, there is plenty of proof. There is ample of proof of Krishna's word in the reality of this world. By following this deadly course of whimsical, not following any Shastras, one destroys the world. And by destroying the world, nobody becomes happy. And now we were about to destroy the world. You know, this, we're destroying the world. Like Acharya said, that everything is plastic nowadays. Everything is plastic. Everything. Plastic is a very bad thing. Just by plastic itself you can destroy the world, you know. The whole India is covered by plastic, you know, all these small plastic bags, you know, it's soon it will be like this. Everything will be covered and nothing will grow there. And you cannot eat this plastic. You know, it's not eatable. Everything is destroyed. It's destroyed by Ugra Karma, it's destroyed by our lust, it's destroyed by our greed, it's destroyed by our anger, And then we try to find some artificial solutions for this. Some United Nations will make some summit and they will decide, you know, what to do. But it's simple. What to do? To purify the heart. To take care of the ecology of our heart. To purify the environment of our heart. To get rid of kama, krodha, lobha, mada, matsarya, moha. And then this is the only way. Kalau nastieva, 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 gatiranyadha. If you want to say something? What shall we do?
Avashya.
Say the prayers.
Avashya.
Avashya.
Avashya. Avashya. याचे प्रभो हम वरमे कमेव याचे प्रभो हम वरमे कमेव गायानि नामानि सदा तवैव गायानि नामानि सदा तवैव सेवै च दिव्यं भवदीयरूपं सेवै च दिव्यं भवदीयरूपं ध्यायानि भवदीय गुणान् सदैव ध्यायानि भवदीय गुणान् सदैव सर्वप्रथमं अहम् भगवत् कृपया अत्र रुस्की देशे श्री वैद्यनाथ महोदयानां निमंत्रणेन आगतः अतः रुस्की भ्रातृणां रुस्की दुर्गे भ्राते येषां कृते मम नमस्कारं समर्पयामि. द्वितीयं मम भारतीया भ्रातरः सन्ति अत्र भारतीयः भ्रातरः रुस्की भ्राति भारतीयः भ्रातरः तेषां कृते तेषां अर्थे मम नमस्कारं समर्पयामि. अहम् उत्तमः वक्ता नास्मि. अहम् उत्तमः वक्ता नास्मि. मम संस्कृतशिष्या परन्तु गुरुः संस्कृतशिष्या परन्तु गुरुः ते उत्तमवक्तारः अति उत्तमं वदन्ति मधुरं वदन्ति सुन्दरं वदन्ति कथाकथने निपुणाः प्रेम्णा वदन्ति न केवलं पुस्तकज्ञानं परन्तु अनुभवन्ति अनुभवं कुर्वन्ति. भवन्तः सर्वे भाग्यवन्तः.
न सत्यमस्ति.
सत्यमस्ति मम अनुभवः. मम अनुभवः अस्ति. भवान् अतीव प्रेम्णा वदति. अहं किं कथयानि? का कथा? एका एव कथा. अन्यत् सर्वं व्यर्थम् अथवा व्यथा. एका एव कथा कथा अन्या सर्वाः व्यथाः. संस्कृतं कठिनं नास्ति. संस्कृतं कठिनं नास्ति. Trudna. Kathinam nasti. Atyantam saralam, ati saralam asti. Yatha sanskritam saralam, tatha sanskriti hi api sarala. Yatha sanskritam saralam, saralatamam, sulabhatamam, madhuratamam, tatha sanskriti hi api saralatamam. Sulabhatama, madhuratama, superlative. Madhuratama, sulabhatama.
Sulabhatama.
Parantu, kintu, viparitam, sarvam viparitam, dhautam gatam. Dhautavastram gatam pentam agatam shikha gata shikha chinna kim shikha gata sutram gatam Tilakam gatam Gomata gata Saralam Saralam viparitam jatam Sarvam viparitam sanjatam Karanam kim Karanam ekam Kevalam ekam karanam Aham atithi hi nasmi. Bhavantaha maam guest ityuktu. He is our guest. Aham atithi hi nasmi. Bharata varsham host of universe. Bharata varsham vishvasya atitheya. Atitheya naam host. Host. Mama bhrati bhartiya bhratara kinchit chintaniyam rodanam ayam ashruni patishyanti kim katka katha katha nasti vyatha yatra vedo nasti tatra vedana Yatra Bhagavat Katha Nasti Tatra Vyatha Yatra Gava Nasanti Tatra Vyatha Ati Dukhasya Katha Sukhasya Katha Nasti Manoranjanam Kartum Asamartha Aham Uttama Vakta Nasmi Drisht Nasmi Aham Jana
Asti, asti.
Arantu, mama mano vyatha katha kathayami. Mano vyatha katham kathayami. Satyam vadami. Aham asatyam na vadami. Vaidyanatha mama vaidyah. Mama vaidya aham sarvatha ayogya mama nigate upadhi nasti degree aham upadhi rahita BA api nasti MA ka varta parantu mam atra Vadati Bharatiya Santi Bharatiya Bhrataraha Kinchit Vadantu Satyam
Satyam
Parantu Bharatiya Bhrataraha Mama Nikata Bhratara Satyam Parantu Aham Atithi Nasmi I have come to my home Mama Griham Asti Ruskiyapi यतो हि भारतम जगन्माता, भारतम भारतवर्षम जगन्माता, परंतु यदि मातु पुत्र दुष्ट यदि मातु पुत्र दुष्ट अथ क्षम्यता क्षम्यता न दुष्ट न धूर्त मूर्ख न दुष्ट न धूर्त मूर्ख अनभिज्ञ अल्पज्ञ तरी मातु दोष का माता तो दुग्धं पायेति पुनः पुनः परंतु वयम सर्वे भारतीया वा रूसकी भ्रातरो वा अमेरिकन भ्रातरो वा यत्र कुत्रापि सर्वे भ्रातरः माता भारतम् परन्तु वयम दुग्धं पातुं न इच्छामः बुद्धिमान बालक जाता कुबुद्धि दुग्धं न पास्यामि बॉटल मिल कूपी कूपी दुग्ध पानम कूपी बॉटल कूपी
यमा बिस्तरे वाजी चलो
बॉटल बॉटल पैकेट परंतु मातो दुग्धम पातु नहीं अनुवादम
अनुवाद
ओ हो अनुवादम कुर्वन्तु
तेवाजी कुर्वन्तु
मातुः दुग्धं मधुरं भवति
मातृदुग्धं कोचिन स्वादकं
स्वमातुः दुग्धं हितकरं भवति
अन्नं रत्नं
अति हितकरं बलप्रदं बलवर्धकं रोगनाशकं
निस्तो नि बलेत निकाल
व्याधिनाशकं
он становится здоровым очень
परंतु यदि पुत्र न पिबति
если человек ребёнок не пьёт молоко
किम कर्तव्यम
что делать
किम कर्तव्यम
что делать если мы не пьём молоко भारत में
सुनाते प्रभु पादाः अति बुद्धिमन्तः
प्रभु पाद
अति बुद्धिमन्तः
очень умный
भगवत भक्ता तीव्र बुद्धिमन्तः
он भक्त भगवान
वैद्य आवश्यक परंतु ग्राम वैद्य मूल्य नास्ती नो यूज उपयोग नास्ती ग्राम वैद्य परंतु इंग्लैंड रिटर्न ब्रिटेन रिटर्न अमेरिकन रिटर्न
अमेरिकन से
दूरात आगता अयम एषा वैद्य निपुण भारतीय नाम चर्म रोग अस्ति स्किन डिजीज चर्म सुंदरम अस्ति चेत् श्वेतम चर्म धौतम धारयति अहो पूज्य श्वेतम अयम कृष्णवर्ण भारतीय परंतु प्रभुपाद अति बुद्धिमंत
प्रभुपाद अच्छी
अमेरिका देशम गत्वा
ऑन पायखो अमेरिका
तत्र
इतम
श्वेत
बेलाकोजिक
चर्म
भक्त
भक्तान भारतम
प्रिवियस
आनीतवंता
प्रिवियस
प्रभुपादाः प्रति विदेशी भक्तम आदिष्टवंता आदेशम दत्तवंता भारतम आगच्छन्तु भारतम आगच्छन्तु
भारतम आगच्छन्तु ученикам приказ приезжайте в Барат
भारतम अवश्यम आगच्छन्तु मम एका शिष्या अस्ति अमेरिकन
должны приезжать
तो तेपि मंदिरस्य अध्यक्षा
ये установил там храм
वासुघोषदासः
वासुघोषदासः
एक अमेरिकन एक रूसकी भ्राता एक अमेरिकन हम वदामि अमेरिकन ब्राह्मण रूसकी ब्राह्मण ऋषिक देश ऋषिक ऋषीणाम देश अयमपि कुत्रापि अस्मिन् लोके जम्बू द्वीपम सर्वं विशालं भूमंडलम एकमेव अस्ति
विशाल भूमंडलम
परन्तु मातु दुग्धं पिबन्तु
मे должны пить материнское молоко
दुग्धं विना गतिर नास्ति
без материнского молока ничего не получится
гати насти
никуда не далеко не уйдем не достигнем цели
किम मया वक्तव्यं वर्षदेशे किम मया वक्तव्यं
что мне сейчас сказать
किम कथयानि
что мне сейчас
сказать सरलम अस्ति
Все очень просто.
Пентам нишкасянту, дхатум дхарянту.
Очень просто
снять. Ати саралам.
Снять штаны, одеть дочь.
Один минут.
За одну минуту все.
Экам палам, экам кшанам.
За одну минуту можно все решить.
Ким каштам?
Что тут трудного? Какая проблема?
Чинтанам курванту.
Однако нужно подумать.
Чинтанам курванту. Эканте упавиши. Экантам.
Нужно иметь одну цель.
Бходжанам, вастрам,
одежда,
грихам. Троям авашчикам.
Три вещи необходимы. Пища,
вастрам,
одежда,
грихам.
И дом.
Мая лаббете. Мамникате ясти. Бходжанам асти.
У меня есть
вастрам
одежда. У меня есть одежда, дом.
Рублс, рубли. Dollars, dolly?
Dollary.
Kim karishyati?
Что еще нужно? Kim, что делать?
Bhojanam, vastram, griham?
Нужно только человеку мало пищи, одежды и дома.
Bhojanam, vastram, griham, kevalam na avashyakam. Kevalam bhojanam, santosho nasti.
А ты еще не приносит удовлетворение.
Сантоша насти, ананда насти, шанти насти, вичара чалати, сарватра.
Нужно подумать, ким
расьям,
что делать.
Бходжанам асти, вастрам асти, грихам асти, ким авашиштам, шеша.
Что еще нужно?
Ким альпам асти.
Что-то маленькое нужно.
Шримад Бхагавате эти вичара санти.
Акшараша
шлока вартате.
Красивая шлока.
Нарадасе прашна. Шримад Бхагавате асти.
Нарада спрашивает.
Нарада Вьясасья ви прашна. Нарада Вьясасья прашна вичара самвада. Ким авашиштам? Сарвам критам.
Все есть. Все сделал.
Богу критам, богу патитам.
Очень много Сарам всего написал, узнаю очень много.
Богу патитам критам, шастрам патитам,
видняном
патитам.
Мудрости написал.
Шилпа шастрам патитам.
Сделал шилпа шастрам.
Сарвавидам богу джнанам асти, паранту кимапи нюнам асти, кимапи альпам асти.
Чего-то не хватает.
Ким таттари бхагават гунаганам на критам ити уктама.
Ты не описал качество.
Саттемас
Бога. Это истина.
Санскрите хиндиям апи асти, тамил бхашаям апи асти, экам падам асти, сарва бхашасу асти. Критаджнята. Критаджням. Критаджня. Грейтфул. Критаджня.
Не благодарны.
Абхара. Даньявада. Спасибо.
Благодарны.
Спасибо насти. Вайам критагнаха. We have become ungrateful.
Мы стали неблагодарными.
Strong word was coming. Акшамета. Ungrateful. Сам приятам. А вайм акрдадня, акрдадгна.
Мы стали неблагодарными.
Бхагаван нама смаранена критагната доша нашьяти. Бхагаван нама смаранена джапена критагната доша нашто бхавати. Вишвасья свами эка асти.
Забросили повторение святого имени.
Яди севакаха сваминам насмарати, смаранам накароти,
тасикагати. Боги, Господи.
Тасикагати, бходжанам апи на лапсяте, бходжанам вастрам грихам апи гачьяти.
Все остальное у нас.
Нима. Яди и кашчана свами асти грихе, саманья свами. Садхарана свами, грия свами.
Муж находится в доме.
Шримад Бхагавате лихитам асти Чакраварти Махараджо пи лаху свами. Чакраварти Махараджо пи лаху свами. Ананта коти брахманда санти. Ананта брахманда.
Что каждый является маленьким господином своим.
Сарвешам свами. Махан свами.
Однако
лаху свами.
Господине всего. Маленький господин. Маленький.
Тасья севакаха яди намаскарам на кароти.
Мы не делаем маленькие
господани. Карим саммик кароти, сарвам саммик. Сева, аджня паланам, прадо намаскарам на кароти.
Мы не планируемся ему.
Тасья сарванаша. Сарванаша.
И в результате все разрушается.
Гатчаду. Disobedient. He is not, he has no courtesy. సింపుల్ లాజిక్. సాధారణం కేవలం సాధారణం కారణం. నమస్కారం నకరు వయం సర్వే అహం స్వపితరం స్మరామి, అహం స్వమాతరం స్మరామి. భారత సరళం అస్తి, రుస్కీ దేశ సరళం నాస్తి. భారతీయ భ్రాతర జానంతి, భారతీయ భగిన్య మాతర భ్రాతర స్వమాత విస్మరణం న భవతి. అహం అద్యాపి అద్యాపి ప్రాతకాలే మాతృవందనం కృతవాన్, పితుః వందనం కృతవాన్. ప్రాతకాలే క్రియతే, నియమ అస్తి. పరంతు మాతుః మాతా
అన్నక,
పితుః పితా, మాతా ధాతా పితామహా యః అస్తి భగవాన్, తస్య స్మరణం న క్రియతే. భారతీయ భ్రాతరూపి న కుర్వంతి. వయం తు హోస్ట్, వయం తు ఆతిథేయాః,
అతిథి
మేజ్బాన్, మేజ్బాన్ మెహమాన్.
Мы все тут хозяева.
Безабан хогаем. Хинди мудами. Ваям дивва рита жата. I have no tongue to say anything. If host becomes guest, and guest becomes host, what if us, what, how to understand? Катам. Бхаратияха атитхея. Анне сарве бхар, анне сарве пи. అనంత భూమండలే సర్వత్రాపి సర్వం జ్ఞానం భారతః గతం.
Все страны должны приезжать в Бхарат и в Индию.
Be proud. Be very proud. అహంకారార్థం నాస్తి. యది మాతు వందనం భవతి, పితు స్మరణం భవతి, ఋషీణాం స్మరణం భవతి, భాగవతానాం భక్తానాం స్మరణం ప్రతిదినం వయం కుర్మః,
తర్హి మే దస్నిక్ పామిచ భవతం.
గుణాః వర్ధంతే భగవన్ నామ స్మరణేన, భగవత్ గుణ చింతనం భవతి. గుణ చింతనేన గుణాః
ఆగచ్చతి. గోస్పద ప్రిహోజత్ కనం సామి.
నమ్రత ఆగచ్చతి. వినయః
విస్మర్తం కచ్చతి.
అహంకారః నశ్యతి.
అహంకారం
మందం మందం ఉత్తమం మానవః భవతి.
పతిహోనిచు
గుడ్ సిటిజన్, ఉత్తమ నాగరికో భవతి. అద్యత్వే సంపూర్ణ విశ్వే నాగరికాః న సంతి.
గుసుదర్శి భోగ
నాగరికాః న సంతి. స్మోకింగ్ వాతావరణం వాయుం నాశయంతి. ఉత్తమ నాగరిక ధూమ్రపానం. సర్వత్రాపి పృథక్ యానం ఆవశ్యకం మత్కృతే. ఏకం కార్ యానం కియత్ ఆక్సిజన్ నాశయతి జ్ఞాయతే. ప్రాణవాయుం నాశయతి. ఏకం ఏకస్మిన్ గృహే పితుః యానం పృథక్, పుత్రస్య పృథక్, మాతుః అన్యత్, సర్వేషాం పృథక్ పృథక్, లఘు బాలకస్యాపి పృథక్. యది యది నాస్తి తర్హి ఖిలోనా క్రీడనకం, మై కార్, మమ యానం, బాలకస్యాపి. సర్వత్ర భ్రాంతి. వాతావరణం విషాక్తం కృతం. కిమర్థం? అహంకారా ఆగతం. పుత్రస్యాపి అహంకారః. మయా ఆశ్చర్యం అద్భుతం. ఏకః పుత్రః స్వపితరం
స్వయమత్సం
నిజ పితరం కథయతి.
గవరేత్
యు హావ్ నో రైట్ టు టచ్ మీ. యే శృతం సో కరుణాభ్యాం. ఆశ్చర్యం భారతే భారతీయ. అతి దుఃఖం అతి దుఃఖం. హాస్యం ఆయాతి, పరంతు రోదన హాస్యం. రోదనమయం
హాస్యం.
పుత్ర ఋషయ
పూర్వజాః,
కుత్ర వయం? కుత్ర పూర్వజాః, కుత్ర వయం? ఆహో విచారే, ఆగచ్చంతు
విచారయంతు. అహం
వక్తా నాస్మి, సత్యం వదామి. అహం కిమపి పఠిత్వా నాగతా. అహం I don't prepare, I can't prepare, I don't know how to speak, Kshamyatam. Parantu manasi bhava agachyate, kim kathayani? Kim vadaniyam? Kopi vishya nasti, eka vishya visham. Visham asti mama manasi. Vishamayam sarvam jatam asti. Kaha vaidya, vaidinatha.
Kuda. Kuda jyava zinanya.
Idaniyam.
Сейчас.
Aham bharatam gamishyami.
Оказался в Бхарате.
Тари Бхартия Бхатра. О, о, Русская, Русская дешум гатва агата. Махан, ай, Махан. Это Махан. Пуджания. Пуна мала, пушпа мала амарпаянти. Арарти кем каришьянти. Махан. Махан гуру. Махамурка. Русский, Русский дешум гатва яди агачати Махан.
Если ты съедешь в Россию, то станешь великим
стал. Америка дешум гатва агачати Махан.
Если съездил в Америку, то великий стал.
Вайдинатха Маходия мам эким вачанам уктаванта. Гата дивасе.
Я ему сказал одну вещь.
Астра сарватрапи химамаям бхавати сарвам. Сампурна варше химамаям. Кевалам иданим кинчит сурья даршанам бхавати. Наракам.
Солнце проявляется. На самом деле, редко.
Шастре шу нарка варнанам асти. Эком нарком асти. Джвала моям, агни моям. Африка. Эком асти хима моям.
Тут только один.
Снег все изменено. Идришам даур бхагьям. Бхартия бхатринам. Даур бхагьям. Дур буддхи. Адьянам. Альпадьянам. Бранти. Брамаха.
У них есть знание, солнце.
Мама мата.
Моя мать.
Мама мата вандья. I should not say it. We are proving it. Мама мата вандья. Мама мата путрахина.
У моей матери нет сыновей. У моей матери нет сыновей.
Мама мата путра. Strong hit. Гали, апшабда. Путра асаттима пьясти. Санскритам вадато вьягхата. Шастрешу вадато вьягхата. Кехте хи асатти. Мама мата вандья катам. Мама мата вандья катам. Son is saying, my mother has no son. Impossible. Son is saying, it's wrong. We can't prove it. Fallacy. Идам хетва бхаса учите. It's fallacy. Мама мата вандья. But we try to prove it. Not to befit. Sonship. We try to prove it, we can't prove it. We can't help. Asmakam manah asti, buddhi rasti, chintanam kurmaha. Jada ete dhotam dhariyanti. What stops me? Kim karanam? Kim kashtam? Мама, Рама, Рама, Кришна, Кришна, Бхагавад, Хари, Хари, Катане, Ким Каштам, Ким, Ким Артам Нас.
Что трудно в этом? Что в этом трудно повторять?
Чинтана Магачати. Сарве Чинтаянти Мурти. Тена Мурха, Тету Гауру Варна, Швету Варна will never be fools. Whites are no fools. Blacks are fools. Это масти манаси.
Подумайте, белые люди...
Кришна, Кришна Варна. Кришна Кришна Варна.
Кришна.
Кришна.
У него черного цвета.
Шьяма, гана шьяма. Паранту асмакам брахмо джата асти екам, ят мама мата йогья насти. Yes. I want to prove myself. Ахам путра насми. Мата вандья, прету мата йогья. Авен.
Что она?
Праманам. Пуна праманам. We start eating beef.
Снова и снова.
Мамса бхакшинам. Атро. Hotel is restra. 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 Mother stops. Mata pi nasti, pita pi nasti. Bharate asti. Mata bharate, pita bharate. Te chintin, mam putra dhanam arjayati. Oh, videsham gatvan. Oh, swargam. Swarga prapta, swarga sa. Hindi, Hindi bhasha yam. Swarga gata, swarga pita ji. Swarga gata ho gaya. Сварг сидар гнать. Но путра сваргам гата. Сваргам гата. Аса Америкам гата сваргам гата. Сваргат бхавидам сваргам. Бхавида сварга. Нана пракара сварга. परंतु वयम किम कुर्म गोमांस भक्षणम मांस भक्षणम अंड भक्षणम किमपि कुक्कुटांड भक्षणम मदिरा पानम अथवा वोडका पानम अहं यदा मुम्बईनगरे गतवान् मुम्बईनगरं तत्र विमानस्थानमासीत् विमानस्थानम् मम शिष्यः बासुगोषदासः अति चतुरः अतिबुद्धिमान् हास्यं करोति तर्हि सः पृष्टवान् किम् एरोफ्लाट् मध्ये जलं लभ्यते जलम् अस्ति प्राप्यते तर्हि तत्र यः सेवकः आसीत् सेवकः उक्तवान् सः भारतीयः आसीत् तेन उक्तं वोडिका लभ्यते जलं न
जानामि
सत्यमपि अस्ति अहं जलं न प्राप्तवान् ऐ फेल्ट् वोमिटिङ्ग् याने धूम्रपानम् अधिकम् आसीत् जलं न लब्धम् मदुरा वा जूस् वा किमपि रसः निकृतं सर्वं परन्तु वयम् अत्र आगत्य तेषां दुर्गुणान् दुर्गुणान् सम्यक् सम्यक् शिक्षणं कुर्मः सम्यक् सम्यक् अध्ययनं कृत्वा मदुरापानं समीचीनं मांसभक्षणं समीचीनं विलम्बेन उत्थापनं जागरणं दशवादने जागरणं विशालं दिनम् अस्ति रात्रि अल्प सर्वदा शयनं रात्रि अपि रात्रिः अल्प अस्ति दिवसे शयनं कर्तव्यं पुनः पुनः शयनं दुर्गुणाः परन्तु एते शीघ्रं चतुर्वादने
जागरणं
गुणान् पश्यन्तु गुणग्राहिणः भारतीयाः गुणग्राहिणः भारतस्य एकमेव गुणः अन्य गुणो नास्ति मम बुद्धौ अहं भारतपुत्रः भवन्तः भारतीयाः भवन्तोपि भारतीयाः सर्वे सर्वे भारताः भा नाम ज्ञानं रताः नाम लग्नाः ज्ञाने लग्नाः शास्त्रज्ञानं पुस्तकपठनं चिन्तनं मननं ते भारताः परन्तु अधिकं ज्ञानं भारते आसीत् इदानीमपि अस्ति अतः एते गच्छन्ति भारतं पुनः 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 माम् आह्वयन्ति अहं मूर्खः यद्यपि यद्यपि मम ज्ञानम् अत्यल्पम् अत्यल्पम् अतः भवन्तः भारतीयाः भारता भवन्तु भवन्तु भारता भारतीया वयम् भवन्तु भारता
भवन्तु भारता
भारतीयाः
भारतीयाः
किं कथयामि अहं मम तु बहु मनसि अस्ति वक्तव्यं समयः न जानामि अहं वक्ता नास्मि समाप्तं करिष्यामि आरम्भोऽपि नास्ति मध्योऽपि नास्ति उपसंहारोऽपि नास्ति प्रारम्भ उपक्रमः न जानामि उपक्रमः मध्यमपि किं किम् उक्तवान् अहमपि विस्मरामि सर्वम् उपसंहारेपि किम् उक्तवान् परन्तु मम भावः एक एव एकं वाक्यं
भवन्तु भारता भारतीयाः
भवन्तु भारता भारतीयाः
भारतीया भवन्तु भारता किं भवन्तु नाम हो जाओ प्लीज क्षम्यताम् इज्विनीते या प्रोखा मोला ग्वारियु पोरस्की एकं कीर्तनं करिष्यामः एकं लघुकीर्तनं सर्वे वदन्तु यदि भवान् जानाति वाद्यं करोतु अहं न जानामि अहं न जानामि एकं स्तोत्रमस्ति स्तोत्रं
वदिष्यामि स्तोत्रं
याचे प्रभोऽहम्
याचे प्रभो
वरमेकमेव
meva
varame gaheva
gayani namani
gayani namani
sada tavaiva
sada tavaiva
gayani namani sada tavaiva
gayani namani sada tavaiva
sevai cha divyam
sevai cha divyam
bhava diya rupam
bhava diya rupam
sevai cha divyam
sevai cha divyam
bhava diya rupam
bhava diya rupam
dhyayani
dhyayani
bhava diya
bhava diya
gunan
gunan
sadaiva
sadaiva
desho smadiyo
desho smadiyo
vesho smadiyo
vesho smadiyo
bhasha smadiya
bhasha smadiya
vandya sadaiva
vandya sadaiva
bhasha smadiya
bhasha smadiya
sevya sadaiva
sevya sadaiva
mata smadiya pitaro smadiya
pitaro smadiya
guravo smadiya
guravo smadiya
vandya sadaiva
vandya sadaiva
guravo smadiya
guravo smadiya
sevya sadaiva
sevya sadaiva
samprarthanano
samprarthanano
bhagavan sadaisha
bhagavan sadaisha
samprarthanano
samprarthanano
bhagavan sadaisha
bhagavan sadaisha
vanda mahaibha
vanda
Bharat Bharat
Bharat
Varshadesham
Varshadesham
Sandharayama
Sandharayama
Priyadam Svavesham
Priyadam Svavesham
Sandharayama
Sandharayama
Priyadam Svavesham
priyadam swadesham
bhasha mahai
bhasha mahai
sanskrita matma bhasham
sanskrita matma bhasham
bhasha mahai
bhasha mahai
sanskrita deva bhasham
sanskrita deva bhasham
bhasha mahai sanskrita
bhasha mahai sanskrita
deva bhasham भाषा महै संस्कृत
भाषा
संस्कृत वेद भाषा
सेवा महै
सेवा महै
संस्कृत लोक भाषा
संस्कृत लोक भाषा
भाषा महै
स्वरा संति संगीते सप्त स्वरा
त्रीन सिमनोत
संगीते सप्त स्वरा हम संगीतम अधिकम न
जानामि
अतः रागम अपि विस्मरामि
या забываю все раги
परंतु
однако
भगवतः अनंत गुणानां मध्ये सप्त गुणाः मम प्रियाः अति
огромных качеств естественных
качеств ते सप्त गुणाः
семь качеств
अधुना इदानीं अहं वदिष्यामि
которых я сейчас
निवेद्यन्ते अस्य नाम सप्तपदी
एवं इमे सप्तपदी
भगवता संबंधा
связь
का संबंधा
какая связь
अनेक संबंधा
много разных связей
भक्ति सामत सिंधु अनेके विचारा भक्ति भक्तो अनेके संबंध परंतु एक संबंध अस्ति सख्य संबंध अतः भगवान मम सखा इति भावा
द्रुग निमित
तत्र बद्रीनाथे अहम एक बारं गतवान बद्रीनाथ
क्षेत्रं ये जो
बद्रीनाथ तत्र व्यास गुहा आसी अस्ति व्यास गुहा
तम
स्कंदरा
व्यास
तत्र वेद व्यास भगवान
वेद व्यास भगवान
वेदादिकं पुराणादिकं सर्वं तत्र पाठितवान तत्र गणेश गुहा अपि
अस्ति
गणेश महाभारतं लिखितवान
गणेश
записал तत्र व्यास गुहायां अहम उपविश्य भागवतम
पठनास्मिभागवतम श्रीमद्भागवतम
बहुवारं पठितवान
मनोग्रस्य
एकवारं
श्रीमद्भागवतम
पठनम्
अधुनास्ति
कर्तुम् अशक्तः असमर्थः
या उच्यौ चिताव
पुनः पुनः विस्मरणं भवति पुनः
पुनः
मनः चञ्चलं भवति दुःखं भवति किं जीवनं व्यर्थं गच्छति
अतिमधुरा मम अतिप्रिया अहं महान् तमोगुणः तमोगुणी अधिकं तमोगुणः दृश्यते
यदा यदा अन्तः निरीक्षणं करोमि यदा यदा अन्तः निरीक्षणं परीक्षणं करोमि तदा अधिकं तमः अन्धकारं पश्यामि
अतः अहं
प्रार्थनां कृतवान् भवन्तः मम भ्रातरः सर्वे ऋषिभ्रातरः भारतभ्रातरः सर्वे कृपया
поэтому пожалуйста
гаянту
поп спойте
हम संगीत न जाने तथापि प्रयत्न करोमि तालम अपि न जानामि
я не знаю ритм
виталам гаям
без ритма
виталам гаям परंतु
однако
виталам अपि
даже без ритма
कालम वितालमपि कालं नाशयति गानं भगवद्गुणगानं वितालमपि कालं नाशयति मृत्युर्बिभेति यद्बिभेति स्वयं
वयम्
यद्बिभेति स्वयं
वयम्
भगवन्नामगुणगानेन निश्चितमस्ति अभयं भवति
प्रवचनस्य
आरम्भः अभयं भाग्यवशात् अयम् अध्यायः एषः षोडशोऽध्यायः मम प्रियतमः अध्यायः सौभाग्यः मम पितृचरणाः मम बाल्यकाले षोडशम् अध्यायं पाठितवन्तः षोडशाध्यायः दैवासुरसम्पद्विभागयोगः अतिमधुरमस्ति अत्र रहस्यमस्ति एकं रहस्यमस्ति यदि भक्तिमार्गे भगवत् सेवामार्गे जीवन साफल्यमार्गे प्रयत्नः कर्तव्यः किं कर्तव्यं तत्र प्रथमश्लोकः पठनीयः प्रथमश्लोकोऽपि सम्पूर्णः मास्तु मत पढ़ो मा पठन्तु परन्तु प्रथमं पदं अन्तिमं पदं फर्स्ट वर्स प्रथम श्लोक प्रथमं पदं अन्तिमं पदं अति
सुन्दरं
श्री भगवानुवाच अभयं सत्त्व
संशुद्धिर्
ज्ञानयोगौ व्यवस्थितिः दानं दमश्च
Dhamascha
Yajnyaschas
Yajnaschas
Swadhyā
Swadhyā
Yastapa
Yastapa
Arjavam
Arjavam
Yajnyaschya Swadhyā
Yajnaschya Swadhyā
Swadhyā Yastapa
Swadhyā Yastapa
Arjavam
Arjavam
Pratama shloka Vishala Asti Asmakam Matihi Manda
Yeah, Loka
Atihimanda Vaya Manda
Yeah, очень.
Parantu Sampurnam shlokam yadi kashtam kathinam bhavati shlokam na kathastam kartum shaknumanti tari prathamam antimam prathamam padam kim
Sri
Bhagavan
Adhayam
Sri Bhagavan vacha Sattva kathanam Bhagavan uktavar Bhagavan ji bole Bhagavan parantu prathamam shlokasya padam bhagavad vachanam kim
abhayam
prathamam padam antimam padam kim arjavam
последние слова
devanagari lipyam
кончается на
abhayam
abhayam arjavam
akara akaratah abhayam a for abhayam angalam sarva angalam akarat abhayam a se abhay akarat abhayam Акарат арджавам.
Последнее слово арджавам. Последнее слово арджавам.
Арджавам. Саралата.
Просто, простой.
Санскритам саралам. Санскрити сарала.
Тот, кто идет...
Асаралам.
Не будьте сложными.
Be easy, but be easy. But don't be B. B-E-E. Please. Don't be busy, but be easy. We are very busy. Vayam vyasta. Bhakta ati vyasta.
Bhakta очень заняты.
Ati vyasta. Vayam na bhakta, bhakta bhasa api na. Nicha. Tathapi pratram kurma kinchit kinchit.
Однако я чуть-чуть стараюсь.
Bhantopi kurvanti, kurvanti. Bhantopi kurvanti, yam jhana mikshamita. Parantu, vayam sarve militva, yadi kurma adhikam balam bhavishyati. Sanghe shakti hi. Shakti Sanghe Asti. Sanghe. Sangha Nama?
Sangra.
Sangha.
Unity.
Sangha. Organization. Sangha. Yadi Sanghatanam Asti. Sanghatanam. Sankhya. Balam. Api Avashyakam. Guna Balam Api Avashyakam. Guna Api Avashyakaha. Quality and quantity. Quantity control, quality control. Ubhayam Avashyakam. Parantu. Asmakam. Guna Santi, Lagulugu Guna Santi. Buddhi Mantavaya, Namurka, Adanjata, Pantu, Kinchit, Bhayamasti.
Namunasku Bhayamsi.
Ata Shorsha Dhyaya, Ati Mukhya.
Поэтому
Мама Бхагья Матру Бхагата Шорша Дхярам Бхагата.
16 глава очень важная.
Абхаям.
Абхаям.
Ахам. Square, four square, Kim? Red square, red. Red square. Lohita chakram. Sarkat. Lohita.
Iron.
Lohitam nama red. Iron, iron is also ferrous, red. It becomes red. Chemistry. Hemoglobin, ferrous. Lohita chakram. Aham ekaki. I was an animal from a special zoo. Everybody was observing me. Yadi, mama baladeva bhrata api dhauta vastre abhavishyat. Yadi hote, then we would have been two.
Если бы Владик был в такой одежде, мы бы были двое таких чудаков.
Ата абхаям.
Тем не менее, я ничего не боялся.
And арджавам саралям саралям.
Простота.
Ачча лага кия. Хатам. Хамаптам. Майям рочате.
Я.
Асури жана, айе асура санти. Тамо гуна. Тамо гуна дена нам ким лакшям. Экам ев лакшям асти.
Одно, один признак тама.
I like it, I do it.
Если мне нравится, я делаю это.
Because I like it, I do it. No logic. We need not give logic. You like it? You like it? I am sure. You like it? अंग हिंदी बोलो संस्कृतम संस्कृतम समीचीनम हिंदी सर्वे न जानती संस्कृतम सर्वे जानती
संस्कृतम सर्वे जानती
संस्कृतम सर्वे जानती सत्यम सत्यम पश्यतु मधुरम सत्यम
मेरी चीज नहीं संस्कृत
क्षम्यताम अहम सूर्यम पश्यामि परंतु अत्र सप्तवादनम अष्टवादनम नववादनम 11 o'clock
no 6 20 minutes to 7
पंचपदानि वदामि
पंचपदानि
मम मम भयं भवति अत्र काला न ज्ञायते बाल्य वयसि मम माता मम पितामही दादी पितामही यदि संध्याकाले सायं शय्या निद्रा ताडनं करोति ताडनं क्रियते अत्र अहम् एकादशवादने गुरुं पश्यामि निद्रा कथं करवाणि भयं भवति निद्रा एव नागच्छति
स्पाट् नि स्पाट्
एकवादने निद्रा आगच्छति एकवादने निद्रा प्रतिदिनम् एकवादने निद्रा इत्थं करोमि इत्थं करोमि क्षमं भवति शान्तो भवामि कष्टं भवति नेत्रे कष्टं शरीरं क्लान्तं क्षमः परन्तु निद्रा न आगच्छति पुनः प्रातः शीघ्रं जागरणं शीघ्रम्
आगच्छति
सन्ध्यावन्दनं कथं किं परन्तु कुर्वन्ति घटि घटि यन्त्रं मम अभ्यासो नास्ति कालयन्त्रस्य अभ्यासो नास्ति विकालः वितालः
विकालः वितालः
परन्तु भगवद्गुणचिन्तनेन ज्ञानं वर्धते विदौट् स्कूलिङ्ग् निश्चितं निश्चितं मम दृढविश्वासः अस्ति यदि कश्चन श्रद्धया भगवन् नाम स्मरणं करोति तस्य गुणाः वर्धन्ते बुद्धिः वर्धते शक्तिः वर्धते सहनशक्तिः वर्धते भयं नश्यति अतः भगवद्गुणचिन्तनं कर्तव्यं भगवन् नाम स्मरणं कर्तव्यं अहङ्कारं विना अहङ्कारं विना अहं भक्तः
Без гордости тем, что я
был. Ахам бхакта. Ахам бхакта айти махан брама.
Если человек говорит, я бхакта, то это большое заблуждение.
Кинчит, кинчит джана.
Чуть-чуть я
стараюсь. Эка шлока асти Бхартри Харина. Бхартри Хари Кави. Бхартри Хари Махан Кави. Махан бхакта.
Бхартри Хари.
Тасья шлока ати рамания. Ахам гатам ичхами. Яда किञ्चिज्ञोऽहं गज इव मदान्धः समभवम् यदा किञ्चिज्ञोऽहं गज इव मदान्धः समभवम् यदा अहम् अल्पज्ञः अहं मदवत्त गजः मदवत्त हस्तिः अहं सर्वं जानामि यदा किञ्चिज्ञोऽहं गज इव द्विप इव द्विप अपि गज द्विप द्विवारं पिबति पूर्वं शुण्डया अनन्तरं मुखेन द्विप द्विप इव वयं तादृश एव खादामः खादामः पुनः पुनः पिबामः पुनः वमनं पुनः खादनं
पुनः
सर्वं पुनः पुनः स्वादिष्टं स्वादिष्टम् अस्ति अति स्वादु अस्ति कथम् अस्ति भोजनं महाप्रसादः अस्ति न महाप्रसादः स्वादिष्टं नास्ति महाप्रसादः स्वादिष्टः नास्ति रुचिकरः नास्ति महान् अपराधः अतः
महाप्रसादः
उदरं दृष्ट्वा अर्धम् उदरं भोक्तव्यम् अर्धम् उदरम् अर्धम् उदरं सर्वथा परन्तु अहं भक्तः अधिकं खादामि अधिकं खादामि अधिकं खादामि मम रुचिरस्ति महाप्रसाद भक्षणेन भक्तिर्वर्धिष्यति भ्रमः गुणाः वर्धनीयाः गुणाः गुणाः कथं वर्धन्ते अल्पभोजने चरकमहर्षिः भारते चरकमहर्षिः अस्ति चरकमहर्षिणा एकं लिखितमस्ति कोरुक् 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 एकं लघुवाक्यं कोरुक् 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 नाम रोगरहितः कः रोगरहितः कः रोगरहितः कः अस्य उत्तरं अस्ति उत्तरं कोरु 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 अस्ति उत्तरं मितभो मितभोजी
मितभो प्रतिदिन मितभो प्रतिवर्षक
ऋतभुक् ऋतभुक् नाम इन राइट वे ऋतम राइट समीचीन मार्ग नीचे उपविष्ट चेयर टेबल होटल सात्विकम अस्ति सात्विकम नॉनवेज नो 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 आई डोंट टेक नॉनवेज एशियन नॉनवेज एशियन वेज अनन्तरं जैन वेज अनन्तरं नानाविध वेज अस्ति चाइनीज वेज जापानीज वेज किमपि उक्तवान् अस्ति नानाविध वेज वेज अपि नानाविधम् अस्ति शाकाहार परन्तु तद् ऋतं नास्ति ऋतभुक् मितभुक् ऋतभुक् हितभुक् चेकअप योर बॉडी स्वशरीर अनुकूलम् अस्ति न वा महाप्रसादे विशालं केकं पिष्टकं मध्ये नवनीतम् अधिकम् अहं भोक्तुं न शक्नोमि मम स्वास्थ्यं नास्ति नवनीतं मध्ये अस्ति जीर्णं न भविष्यति अहं कृषिकार्यं न करोमि कृषिकार्यं परिश्रमं न करोमि केवलं बुद्धिकार्यं केवलं बुद्धिकार्यम् अतः मम अधिकं हितभुक् मितभुक् ऋतभुक् हितभुक् अल्पं राइट हितभोजनं रीतिरपि उत्तमा रीतिः कोरुक् 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 अतः भगवतः प्रसादः स्वीकर्तव्यः कथं क्षम्यतां विषयान्तरं जातम् विषयान्तरं जातम् मम वक्ता नास्मि अहं प्रमाणं ददामि अहं वक्ता नास्मि ऐ एम् प्रूविङ्ग् इट् एविडेन्स् परन्तु मम एकं विषयः मनसि अस्ति यत् भगवद्गुणचिन्तनेन गुणाः वर्धन्ते दरबारी रागे गाने इच्छा अस्ति दरबारी रागे
दरबारी
कहाँ योहम सोहम नाथ तवाहम
योहम सोहम नाथ तवाहम
योहम सोहम नाथ तवाहम
योहम सो हे नाथ अहम तवास मैं आपका इदम विस्मरणम ना कर्तव्य स्वगुणा अपि न चिंतनीय अहम महान अहम धनवान अहम विद्यावान अहम बलवान न चिंतनीय अहम मूर्खा अहम मूढ़ा इति अपि न चिंतनीय यादृशा अस्मि यथावत् समर्पण हृदयेन यथावत् योहम सोहम नाथ तवाहम योहम सोहम
हम छलहि
नो हम
नाथ तवा हम
नाथ तवा हम
बलहि नो हम
बलहि नो हम
नाथ तवा जब बंद करें तब यदा हम पिधान कुरुमि तदा वदामि
व्यास सुवाणी
सद्गुरु वेद
संस्कृते भू भवति उसकी भू सुखिनो भगवान नाम ही सुखम अस्ति भगवान नाम जब सुखम अस्ति भागवते सुखम अस्ति सुखिनो नित्यम
सुखिनो नित्यम
वयम भावे
वयम भावे
नित्यम सुखम नित्यम नित्यम सुखम भवति कदापि असुखम न भवति प्रतिकूले वा अनुकूले वा सर्वदा सुखम
भवति
प्रतिकूले प्रतिकूलात् प्रतिकूलम् प्रतिकूलतमम् तत्रापि सुखम् मनसि कष्टं न भवति सहनं कर्तुं शक्यते अति अनुकूलेपि सुखं भवति यतो हि प्रतिकूलं यदि भवति यदि प्रतिकूलं भवति तर्हि पूर्वजन्म पापनाशः यदि प्रतिकूलं भवति पूर्वजन्म पापनाशः भवति अतः असुखं भवति सुखम् अति सुखं पापनाशः यदि अनुकूलं भवति तर्हि जपम् अधिकं कुर्मः आनन्दमग्नभावः अतः सुखिनो नित्यम्
सुखिनो नित्यम्
वयम् भवेम
वयम् भवेम
शान्ता नित्यम्
शान्ता नित्यम्
वयम् वयम्
वयम् वयम्
भवेम ये तो ही शांति नाम पीस बट वी आर इन पीसेस हाउ कैन वी एट पीस वी आर पीसफुल वी आर इजी नॉट पी ए सी पीसफुल परंतु अत नित्य शांति कदा भवति यदि नित्यम स्मरामः यदि अनित्यम स्मरामः कथम शांति भविष्यति अनित्यम तु असुखमेव अनित्यम असुखम लोकम इमं प्राप्य भयस्वमाम अतः यदि अस्माकं भयम् अस्ति भयम् नष्टं कुर्वन्तु भयम् नष्टं जातम् हो गया मराठी भाषायां भय नष्ट झाला जातम् झाला नष्टं जातम् भयम् अधुना केवलम् एकम् आवश्यकम् षोडशाध्याये प्रथम श्लोके अन्तिमं पदम्
последний श्लोक
आर्जवम्
आर्जवम्
डोंट बोस्ट ऑफ not to be bhakta. Don't try to imitate kimasti angala padam na janami kimasti natakam vayam abhinayam kurmah mansam bhoktum shaknomi iccha nasti janami iccha nasti dukham bhavati pantu lobhava lokna boss swami am sevaka vrittyah tari sarve madrapanam kurvanti for business I have to I have to take tea. और चाय पानम चाय के बिना बात नहीं होता चाय बिना वार्ता कथम भवति अतः वयम पिबाम बी शो वयम नाटकम कुर्मा प्रदर्शयाम प्रदर्शनम केवल अतः आर्जवम कुर्वन्तु ना पिबामि न पिबामि अहम टी पानम न करोमि कुपेयम कापेयम कुपेयम कुत्सित न पिबामि अहम मदरा पानम न करोमि अलम न करोमि न करोमि
Идел, значит,
no logic. No, we can't teach fanatics. Fanatics can't be fought against. Yeah, they do dushta. They yuktim na vanchanti. Likitam asti, injurious to health. Warning. Likitam asti, na pibantu, dhumrapanam na kurvantu, likitam asti. Pibam pibanti. Lagu likhanti, lagu akshireshu. धूम्रपानं न कुर्वन्तु नियमभङ्गं न करोमि लिखितमस्ति किम् अस्ति वञ्चनं वञ्चनमस्ति सर्वं
वञ्चनं
अतः सरला भवन्तु वयं सरला
बालः सरलो भवति
बालः सरलो भवति सर्वे बालाः भक्ताः निश्चितं सर्वे बालाः भक्ताः एव निश्चितमस्ति इदं परन्तु यस्य माता नास्ति पिता नास्ति किं करिष्यति
यस्य नास्ति नेत
रूसकी देशे माता नास्ति पिता नास्ति
नेत
मातृहीनाः पितृहीनाः
мы спешли сюда
гуру
нет от от
я become gurus
мы все стали гуру
you must feel shy navrasa agata mama prochana navrasa hasyam api agatam rodanam api agatam क्रोधोपि आगतः सर्वे रसः आगतः भक्तिरसः स्थायी भक्तिरसः स्थायी अस्ति यदि भक्तिरसो भवति सर्वे रसः आगच्छन्ति साहित्यशास्त्रे नवरसाः सन्ति परन्तु भक्तिरसः दशमरसः भक्तिरसे सर्वे रसः आगच्छन्ति निश्चितम्
द्वादशरसः
द्वादश अग्रे विषयः अधिकं ज्ञानं नास्ति मम केवलं साहित्यज्ञानमस्ति भक्तिमार्गे अधिकं ज्ञानं प्राप्स्यामि अनन्तरं षड्रसाः जिह्वाया षड्रसाः तेऽपि प्राप्यन्ते बहुविधं फलं बहुविधं व्यञ्जनं सर्वं भगवत्प्रसादः लभ्यते बहुविधरसाः रसो वै सः सर्वं रसमयं भवति नीरसं कदापि न भवति कदापि न नीरसम् वने वा ग्रामे वा नगरे वा कुत्रापि सर्वदा सरसं भवति यदि वयम् आर्जवम् आर्जवम् सरलता सरलता सारल्यम् ऋजुता ऋजुरेखा ज्योमेट्रि ज्यामिति ऋजुरेखा वक्ररेखा वक्ररेखा एवं ऋजुरेखा एवं किं सरलम् एवं ऋजुरेखा देर् इस् ए थियरम् क्षम्यतां क्षम्यताम् आंगलम अमंगलम आंगलम अमंगलम आंगलम अमंगलम आंगलम ना अमंगलम हास्यार्थम वदामि परंतु रुस्की भाषा किमर्थम ना मद वक्तव्य या निजना रुस्की या प्रोख हजरा रुस्की या ग्वारियो न संस्कृत है समझी समझी ना संस्कृतम संस्कृत भाषा या पुत्री रुस्की संस्कृत भाषा या पुत्री सर्वा भाषा पौत्री आगे चल काचन पौत्री काचन पुत्री वदामि सावधानं श्रोतव्यम् अन्तिमो कालः इदानीं समाप्तं करिष्यामि परन्तु गम्भीरं चिन्तयन्तु अतिगम्भीरम् अधुना अयं कः रसः अहं न जानामि और अतिगम्भीररसः अस्ति नौ और नेवर् अधुना वयम् आधुनिकाः आधुनिक मोडर्न् I am Adhunika. We live in the present. Eka vidwan asti. Present is permanent. Mahavadhi. Present is permanent. Yukti. Ku yukti. Ku margi gamtu. But I am using this logic for us. Present is permanent. Sang satsanga kale. Buddhi manaha dravitam bhavati. Drava. Dravam bhavati. Satsanga kale manaha drutam bhavati. Yatha gatu lak. Lak. Laksha, laksha rasa, the lack, the stamping, when it is hot, it melts. भक्ति सत्संग काले किं भवति बुद्धि मनः किंचित शांतं भवति पुनः ओहो किंचित पीड़ा भवति मनसि द्रव भवति तत् काले या संस्कारो भवति इम्प्रेशन स संस्कारः दृढो भवति अतः निश्चितं निर्णय कर्तव्य निर्णय कर्तव्य चेंज कम्स इन सेकंड नॉट इन ईयर कदा नियम अस्ति देयर इज अ टर्निंग पॉइंट
संस्कार अत्यंतवत्सं
लघु रेल स्थान के पश्यामि तत्पट्टी द्वयम् भवति पट्टी द्वयम् तत्र लघु भेदः बिंदु एक एव अत्र एकं गच्छति साक्षात् किं साइबेरिया शिविर स्थानम् एकं गच्छति साक्षात् कुत्र यूक्रेन गच्छति एकम् अन्य मार्गः खलु यूक्रेन मार्गः अन्यः साइबेरिया मार्गः अन्यः परन्तु बिंदु एकः तत्र यदि दोषो जातः तर्हि यान परिवर्तनं भविष्यति कष्टं भविष्यति अतः अस्माकं जीवनस्य किञ्चित् परिवर्तन बिन्दुरागच्छति अहमपि पूर्वं सेनायां गतवान् अहं सैनिकः अस्मि कृतवान् NDA परिवर्तनं भवति अतः बुद्ध्या चिन्तनीयम् अतिविचारः कर्तव्यः आर्जवं सरलहृदयेन कापट्यं मास्तु छलहीना छलरहिता छलरहित चिन्तनं कर्तव्यं मनसि किम् आवश्यकं वट् वी
नीड्
किम् आवश्यकमस्ति यत् लभ्यते तत् लभ्यते एव मम तु प्रतिमासं वेतनं नास्ति मम प्रतिमासं वेतनं नास्ति पश्यतु अहं जीवामि अहं गृहस्थः सामान्य नीच प्राणी न उच्च प्राणी अति नीच जन्तु पाशबद्धः गृहपाशबद्धः गन्तव्यं पाठनं कर्तव्यं वेतनं विना मम गृहे आगच्छन्ति विद्यार्थिनः परन्तु जीवनं चलति कष्टं नास्ति लेशमात्रं कष्टं
नास्ति
सत्यं वदामि मधु खादामः घृतं खादामः शुद्धं मधु शर्करां न खादामः रोटिकामपि न खादामः शाकं फलम् अथवा अङ्कुरितं स्प्राउट्स् अङ्कुरितं मुद्गं मूङ्ग् मुद्गं ग्रान् किम् उच्यते मुद्गम् अति सुन्दरमस्ति जीवनं चलति वस्त्रमेकं चलति अत्र शीतं नास्ति एकं कम्बलं पर्याप्तं कम्बलम् अधिकं कम्बलद्वयं स्वीकरोतु कम्बलत्रयं स्वीकरोतु बद्रीनाथात् अधिकं नास्ति शीतं बद्रीनाथेन समानम् अस्ति अत्र भारते सर्वम् अस्ति भारते अनुभवः कर्तुं शक्यते शीतं भयङ्करं हिमपातः भवति बद्रीनाथे अतिशीतलम् अत्रापि शीतलं करोतु कम्बलम् अग्निः काष्ठं बहु अस्ति अत्र वनानि सर्वं जीवनं कर्तव्यं मनोपि सरलं सरलं जीवनं मनः सरलं तर्हि कष्टं न भविष्यति निश्चितम् अतिशान्ति यदि कोऽपि एकं रूप्यकम् अर्पयति एकं रूप्यकं स्वीकरोमि अतः रूबल् ददाति रूबल् स्वीकरोमि को फलम् आनयति फलं खादामि गृहेपि इत्थं भवति अहं गुजराते वसामि बडोदानगरे आगच्छन्ति अर्पयन्ति जीवनं चलति अधुना विमानेन आगतः विमानेन धन्यः अतिभाग्यं सौभाग्यम् अहं विमानेपि भूमौ सुप्तवान् विमाने आगतः विमानेपि सर्वे आश्चर्यं कुर्वन्ति मूर्खा एवं का जन्तु पशु अग्रे अति आनन्देन सुप्तवान् कष्टं जातं धूम्रपानमधिकम् आसीत् पृष्ठे धूम्रपानं सर्वत्र धूम्रपानं तत्र केवलं किं व्योमबाला परिचारिका व्योमबाला आसीत् व्योमबाला परिचारिका यान विमानपरिचारिका आसीत् सा गतवती स्वस्थाने रात्रौ स्वापार्थं तस्य स्थानं रिक्तं जातं स्थानं सर्वं तस्य अहं सुप्तः परन्तु मनसि कापट्यं छलं किमर्थम् मनुष्य जन्म प्राप्तम अस्ति, मनुष्य जन्म प्राप्तम, वयम न पशवः, we can't become animals, we can become less than animals, below animals, we
можем стать ниже, чем животные.
भर्ति हरि तो बहुत श्लोकम भर्ति हरि अति महान तस्य स्मरणम आगच्छति मम साक्षात पशु वयम न पशवः वयम पशोऽपि हीनः यतो हि सिंहः मांसं खादति तृणं न खादति कदापि कालो गच्छति ओ गता काल क्षम्यतां तर्हि मम सर्वदोषा क्षम्यतां अहम् अतीव अल्पज्ञः सभा सभा शोभां वर्धयितुं न शक्नोमि सभा शोभा वृद्धिर् न भवति मम आगमने यतो हि समयं कालं न जानामि विकालः वितालः अतः मम भारतीय भ्रातुः मनोरथं भग्नं मा कुर्वन्तु मम मनोरथं भग्नं मा कुर्वन्तु अन्यथा वैद्यनाथ महोदय मां पुनः आक्रमिष्यन्ति अत्र परन्तु पुनः आह्वानं भविष्यति पुनः ताडनं कर्तव्यं मया पुनः पुनः वचन ताडनं न शोभनं क्षम्यतां तो सर्वेभ्यो मम नमस्काराः प्रणमामि दण्डवत् वन्दनम् हरि 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 वदन्तु
हरि वदन्तु
हरि वदन्तु
हरि वदन्तु
हरि वदन्तु
हरि वदन्तु
हरि ब्रुवन्तु
हरि ब्रुवन्तु
हरि ब्रुवन्तु
हरि ब्रुवन्तु